vimalyoga.com, an exclusive integrated yoga video site, brings Srimad Bhagavad Gita recitation from Vimal Vyas, founder vimalyoga.com. Atha prathamodhyayah. Dhritarashtra uvacha. Dharma kshetre kuru kshetre samavetayuyutsavah. Mamaka pandavasyev kim kurvata sanjaya. Sanjaya uvacha. Drashtvatu pandavanikam vyudam duryodhanastada. Acharyam upasangamya raja vachanam abravit. Pashyetam panduputranam acharya mahati chamum. Vyudam drupada putrena tava shishyena dhimata. Atra shura maheshvasa bhimarjuna samayudhi. Yuyudhano viratascha drupadascha maharatha. Drashtaketuscha kitana kashirajascha viryavan. Purujit kunti bhojascha shavyascha narapungava. Yuddhamanuscha vikranta uttamojascha viryavan. Sobhadro dropadeyascha sarva eva maharatha. Asmakam tu vishishtaye tanni bodhadvijottama. Nayaka mam senyasya sangyartam tan bravimite. Bhavan bhishmascha karnascha krapascha samitinjayah. Ashvatthama vikarnascha somadattisthathevacha. Anyecha bahavah shura madarthe tyakta jivita. Nana shastra praharana sarve yuddha visharada. Aparyaptam tadasmakam balam bhishma virakshitam. Paryaptam vidimete sham balam bhima virakshitam. Ayaneshu cha sarveshu yatha bhagam avasthitha. Bhishma meva virakshantu bhavantah sarva evahi. Tasya sanjanayan harsham kuru vraddha pitamaha. Singhanadam vinadyoche shankham dadmo pratapavan. Tataha shankhascha bhairyascha padavanak gomukha. Sahase vyabhya hanyanta sashabdastumulo bhavat. Tataha shvete hare yukte mahati syandane stito. Madhavah pandavascheva divyo shankho pradatmatu. Panchajanyam rishikesho devadattam dhananjayah. Pondram dadmo mahashankham bhimakarma vrakodarah. Anantavijayam raja kuntiputro yudhishthirah. Nakulah sahadevascha sughosha manipushpako. Kashyascha parameshvasa shikhandi cha maharathah. Drishtadyumno viratascha satyakischa parajitah. Drupado dropadeyascha sarvashah prativipate. Sobhadrascha mahabahu shankhan dadmu prathak prathak. Saghosho dhartarashtranam hridayani vyadarayat. Navascha prativimcheva tumulo vyanunadayan. Atha vyavastitan drashtva dhartarashtran kapidvajah. Pravratte shastra sampate dhanurudyamya pandava. ऋषिकेशं तदा वाक्यम् इदमाहमहीपते। अर्जुन उवाच, सेनयोरुभयोर्मध्ये रथं स्थाप्य मेच्युत, यावदेतान्निरक्षेऽहं योद्धुः कामानवस्थितान्, कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे। योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः, धार्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षवः। संजय उवाच, एवमुक्तो ऋषिकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्। भीष्मद्रोण प्रमुखतः सर्वेषां च महीक्षिताम् उवाच, पार्थ पश्येतान् समवेतान् कुरुनीति। तत्र पश्यत् स्थितान् पार्थः पितृनथ पितामहान्, आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखिस्तथा, श्वशुरान् सुहृदयश्चैव सेनयोरुभयोरपि। तान् समीक्ष्य स कौन्तेय सर्वान् बन्धुनवस्थितान्, कृपया परयाविष्टो विषीदन्निदमब्रवीत्। अर्जुन उवाच, दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्, सीदन्ति मम गात्राणि मुखं च परिशुष्यति, वेपथुश्च शरीरे मे सोमहर्षश्च जायते। गाण्डीवं संसते हस्तात् त्वक्चैव परिदह्यते, न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः। निमित्तानि च पश्यामि विपरीतानि केशव, न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे। न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च, किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा। येषामर्थे काङ्क्षितं नो राज्यं भोगा सुखानि च, त इमेव स्थिता युद्धे प्राणांस्त्वक्त्वा धनानि च। आचार्यः पितरः पुत्रा तथैव च पितामहा, मातुला श्वशुरा पौत्रा श्याला सम्बन्धिनस्तथा। एतान् हन्तुमिच्छामि नतोपि मधुसूदन, अपि त्रैलोक्यराज्यस्य हेतो किं नु महीकृते। निहत्य धार्तराष्ट्रान्न का प्रीति स्याज्जनार्दन, पापमेवाश्रयेदस्मान् हत्वेतानाततायिनः। तस्मान् आर्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्, स्वजनं हि कथं हत्वा सुखिनः स्याम माधव। यद्यप्येते न पश्यन्ति लोभोपहत चेतसः, कुलक्षय कृतं दोषं मित्रदोहे च पातकम्। कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुं, कुलक्षय कृतं दोषं प्रपश्यद्भिजनार्दनः। कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः, धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत। अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः, स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः। सङ्करो नरकायैव कुलग्नानां कुलस्य च, पतन्ति पितरो हेषां लुप्तपिण्डोदक्रिया। दोषैरेते कुलग्नानां वर्णसंकरकारके उत्स्याद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वता। उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुम। अहो बत महत्पापं कर्तुं व्यवसिता वयं यद्राज्य सुखलोभेन हन्तुं स्वजनम् उद्यता। यदि मां प्रतीकारं अशस्त्रं शस्त्रपाणयः धातराष्ट्रारणे हन्युः तन्मे क्षेमतरं भवेत्। संजय उवाच। एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविघ्नमानसः। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः।